इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। आदौ मुख्याः वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ली नगरे वेन्जुएला देशस्य कार्यवाहक राष्ट्रपतिना डेल्सी रोड्रिग्स महाभागया सह द्विपक्षीय वार्तां कृतवान्। वयोवृद्धः चलचित्र निर्माता पहलाज नेहलानी अद्य दिवंगतः। अमेरिका देशस्य प्रतिनिधि सभा राष्ट्रपति डॉनल्ड ट्रम्पम् ईरान देशं विरुध्य अग्रिम सैन्य कार्याचरणात् निरोद्धुं प्रस्तावं स्व्यकरोत्। केरल राज्ये दक्षिण पश्चिम प्रावृढः आगमनम्। अपि च गुजरातस्य अहमदाबाद नगरे विश्व योगासन क्रीडा स्पर्धा श्रृंखला इत्यस्य उद्घाटन संस्करणस्य आरम्भः। वैश्विक क्रीडा मार्गसूच्याम् ऐतिहासिकं सोपानम्। इदानीं वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ली नगरे वेन्जुएला देशस्य कार्यवाहक राष्ट्रपतिना डेल्सी रोड्रिग्स महाभागया सह द्विपक्षीय वार्तां कृतवान्। उभाभ्यां नेतृभ्यां भारत वेनेजुएला सम्बन्धानां विविधाः पक्षाः समीक्षिताः। ऊर्जा सुरक्षा व्यापार निवेशः औषधि निर्माणं स्वास्थ्य सेवा परिवहनं तथा नवीकरणीय ऊर्जा क्षेत्रेषु सहयोग विस्तारस्य उपायाश्च चर्चिताः। वार्ताहरान् सम्बोधयन् रुद्रेन्द्र टण्डनः प्रोक्तवान् यत् द्विपक्षीय वार्ताः उभयोः देशयोः सम्बन्धं सुदृढीकरोति।
The discussions also
आर्थिक सहयोग को सिर्फ ऊर्जा क्षेत्र तक सीमित न रखकर खनन पशुपालन परिवहन कृषि उपकरण ऑटोमोबाइल और दवा उद्योग जैसे क्षेत्रों तक विस्तारित करने पर चर्चा हुई। चर्चा का उद्देश्य ऐसे अवसर और तरीके तलाशना है जिनसे भारतीय कंपनियां वेनेजुएला के बाजार में सफलतापूर्वक अपना कारोबार बढ़ा सकें।
Can enter the Venezuelan market successfully.
डेल्सी रोड्रिग्स महाभागा द्विदिवसीय भारत यात्रायै ह्यः नवदिल्लीम् आगता। अस्याः यात्रायाः माध्यमेन उभयोः देशयोः आर्थिक ऊर्जा क्षेत्रयोः सहयोगः अधिकः सुदृढः भविष्यतीति अपेक्षते। विदेश मंत्री एस जयशंकरः वेनेजुएला देशस्य कार्यवाहक राष्ट्रपतिना डेल्सी रोड्रिग्स महोदयया सह सममिलत् द्विपक्षीय सहयोगस्य सुदृढीकरणे प्रदत्तं बलम्। नवदिल्ल्यां विदेश मंत्री एस जयशंकरः अद्य प्रातःकाले वेनेजुएला देशस्य कार्यवाहक राष्ट्रपतिना डेल्सी रोड्रिग्स महोदयया सह सममिलत्। अस्मिन् अवसरे उभयोः देशयोः सम्बन्धानां सुदृढीकरणं विविधेषु क्षेत्रेषु सहकार विस्तारश्च चर्चितः। वयोवृद्धः चलचित्र निर्माता तथा केन्द्रीय चलचित्र प्रमाणन मण्डलस्य पूर्वाध्यक्षः पहलाज नेहलानी अद्य मुम्बई नगरे दिवंगतः। सः 76 वर्षीयः आसीत्। चलचित्र निर्मातृत्वेन असौ हथकड़ी इति चलचित्रेण स्वकार्यजीवनस्य आरम्भं कृतवान्। इल्जाम इति चलचित्रेण अभिनेत्रे गोविन्दाय प्रमुखस्य अवसरस्य प्रदानस्य श्रेयः अपि तस्मै वर्तते। 15-2000 वर्षे सः केन्द्रीय चलचित्र प्रमाणन मण्डलस्य अध्यक्षः नियुक्तः। अमेरिका देशस्य प्रतिनिधि सभा राष्ट्रपतिं डॉनल्ड ट्रम्पम् ईरान देशं विरुध्य अग्रिम सैन्य कार्याचरणात् निरोद्धुं प्रस्तावं स्व्यकरोत्। एषः चतुर्थः अवसरः अस्ति यदा प्रतिनिधि सभा ताभिः युद्ध सम्बद्धाभिः शक्तिभिः सीमिता भवेत् इत्यर्थं प्रयासं करोति। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। समम् एव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन ए आई आर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। भारतीय ऋतु विभागेन अद्य केरल राज्ये दक्षिण पश्चिम प्रावृढः आगमनस्य पुष्टिः कृता। अस्मिन् वर्षे वर्षर्तोः वृष्टिः सामान्यकालात् त्रिदिवस विलम्बेन आगता। विभागेन नवम जून दिनांक पर्यन्तं केरल राज्ये माही क्षेत्रे च कतिपयेषु स्थानेषु अतिवृष्टेः सम्भावना प्रकटिता। अस्माकं वार्ताहरस्य अनुसारेण राज्यस्य विविधेषु जनपदेषु तीव्रा वर्षा प्रवर्तते, येन जनजीवनं प्रभावितम्। गुजरातस्य अहमदाबाद नगरे विश्वयोगासन क्रीडा स्पर्धा श्रृंखला इत्यस्य उद्घाटन संस्करणस्य आरम्भः जातः। इदं वैश्विक क्रीडा मार्गसूच्याम् ऐतिहासिकं सोपानं निर्दिशति। प्रधानमन्त्री नरेन्द्र मोदी सायंकाले अन्तर्जाल माध्यमेन अस्मिन् महाकार्यक्रमे भागं गृहीतवान्। स्वस्य शुभाशयाञ्च निवेदयति यत् जगतः योगानुरागिणः क्रीडकाश्च प्रतियोगितायाः कृते समागच्छन्ति। भारत लाओस संबंध विषये राष्ट्रपतिना द्वयोर्देशयोः सहयोग विस्तारस्य सम्भावनाः प्रतिपादिता। राष्ट्रपतिः द्रौपदी मुर्मुः उक्तवती यत् भारतस्य लाओ जनवादी लोकतांत्रिक गणराज्यस्य च मध्ये बौद्ध धर्मस्य रामायणस्य च विषयाधारिताः घनिष्ठाः सांस्कृतिक सभ्यतागत सम्बन्धाः सन्ति। राष्ट्रपति भवने लाओस देशस्य उपप्रधानमन्त्रिणं विदेशमन्त्रिणं च थोंग सावन फोम विहाने इत्यमुं स्वागतं कुर्वन्ती सा अवदत् यत् उभौ देशौ अस्मिन् वर्षे राजनैतिक सम्बन्धानां स्थापनायाः 70वां वर्ष समाचरतः। सा उक्तवती यत् व्यापार निवेशयोः क्षेत्रे सहयोग विस्तारस्य पर्याप्ताः अवसराः सन्ति। सूचना प्रविधि, स्वास्थ्यं, कृषिः, सिंचनं, विनिर्माणं, नवीकरणीय ऊर्जा तथा विद्युत् क्षेत्रेषु सहयोगवर्धनाय भारतं सज्जम् अस्ति। अल्पसंख्यक कार्य मंत्री किरण रिजिजुः अद्य न्यगादीत् यत् शासन व्यवस्थां भद्रतरं कर्तुं कल्याणकारिणीनां योजनानां प्रभाविनं क्रियान्वयनं सुनिश्चयं कर्तुं प्रविधिना महत्वपूर्णा भूमिका कृता। असौ अल्पसंख्यक कार्यालय कार्यमंत्रालय द्वारा अद्य नवदिल्ल्यां आयोजितानां परिष्काराणां द्वादश वर्ष प्रपूर्त्यवसरस्य उपलक्ष्ये मन्यमानं परिष्कारोत्सवं सम्बोधयन् उक्तवान्। मीरा युवा भारत इतीदम् आधिकारिकरूपेण गिनीज वर्ल्ड रिकॉर्ड्स इत्यनेन मान्यता प्राप्ता। यतो हि एकस्मिन्नेव सप्ताहे अन्तर्जाल प्रश्नस्य कृते सर्वाधिकानाम् उपयोक्तृणाम् उपाधिं प्राप्तवत्, यत्र प्रश्नानाम् आभासीयरूपेण उत्तरं प्रयच्छन्तः 390,000 अपि अधिकाः प्रतिभागिनः आसन्। केन्द्रीय युव कार्य क्रीडा मन्त्री डॉक्टर मनसुख मांडवीयः अद्य नवदिल्ली नगरे आयोजिते समारोहे सम्मानपत्रम् अवाप्नोत्। गतवर्षे अक्टूबर मासस्य 25 दिनांकात् 31 दिनांक पर्यन्तं विकसित भारत यंग लीडर्स डायलॉग 26,000 प्रश्नस्य इत्यस्य माध्यमेन अभिलेखः प्राप्तः। मनसुख मांडविया इत्यनेन अस्य कृते वर्धापनं प्रदत्तम्। गुजरात आरक्षि विभागेन राज्ये अवैध रूपेण निवसतः बांग्लादेशीय नागरिकान् विरुध्य ऑपरेशन डेल्टा हंट नामना विशेष अभियानम् आरब्धम्। अस्य अभियानस्य अन्तर्गतं गत 24 होरासु 24,000+ बांग्लादेशीया गृहीता तथा च 280+700 संदिग्ध जनानां विषये अन्वेषणं प्रचलति। दिल्ली मुख्यमंत्री रेखा गुप्ता अद्य मालवीय नगरे अग्निकाण्डेन आहतान् द्रष्टुं साकेतस्थं निजी चिकित्सालयं गतवती। सा पीडितैः तथा तेषां परिवारजनैश्च सह संवादं कृतवती। प्रत्येकं मृतकस्य परिवाराय 10,00,000 रूप्यकाणां गंभीररूपेण आहतानां 5,00,000 रूप्यकाणां च अनुग्रहधनस्य घोषणा कृता। बिहार राज्यस्य मुजफ्फरपुर नगरे एकस्मिन् निजी चिकित्सालये भीषणाग्निकाण्डे 3 जनाः मृताः, अनेके च आहताः। एषा घटना गतरात्रौ ब्रह्मपुरा क्षेत्रे अभवत्। गंभीर रोगिणः उपचारार्थं अन्येषु चिकित्सालयेषु प्रविष्टाः। इति वार्ताः।